गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परब्रह्म तस्मै श्री गुरवे नमः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अत्र गतवर्गे अपि तस्मात् प्राकपि तत्र न्यायशास्त्रं किम् इति तत्र परिचयत्वेन किञ्चित् उक्तम् आसीत्। अपि एतावत् वयं किं कृतवन्तः, तत्र द्रव्याणि तत्र श्रेणिका इति, तत्र नैयायिकाः अनन्ताः पदार्थाः जगति सन्ति इति कृत्वा सर्वेषां पदार्थानां तत्र वस्तूनां श्रेणी कृतवन्तः, श्रेणीं कृतवन्तः। तत्र श्रेण्यां तत्र प्रथमः अस्ति तत्र द्रव्यम् इति, तत्र नवद्रव्याणि सन्ति इति दृष्टवन्तः। तदनन्तरं तत्र द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति सप्तपदार्थाः सन्ति इति अपि दृष्टवन्तः। इदानीं तत्र अस्माकं प्रथमकार्यम् अत्र अस्ति तत्र उद्देशः। उद्देशः नाम नाममात्रेण वस्तुसङ्कीर्तनं, नाम वस्तूनां तत्र नामानि यदि वदामः तावत्, किन्तु तत्र वस्तु किम् इति न वदामः, तत्र वस्तुनः लक्षणं किमपि न वदामः, तत्र कथं ज्ञातव्यम् इति तत्सर्वम् अग्रे आयाति। इदानीं केवलं तत्र नामकरणम् इति, तत्र नाममात्रेण वस्तुसङ्कीर्ण वस्तुसङ्कीर्तनम् उद्देशः। अस्मिन् उद्देशभागे तत्र के के पदार्थाः सन्ति, तत्र पदार्थानां विभागः कृतः। तत्र द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति, अत्र तेषाम् अवगमनार्थं तत्र किमर्थं सप्तपदार्थाः सन्ति, अपि तयोः मध्ये कः सम्बन्धः, यद्यद् अस्ति लोके तत्सर्वम् येषु सप्तपदार्थेषु अन्तर्भूतः अस्ति न वा इति एतत् सर्वं द्रष्टव्यमस्ति अस्माभिः। किन्तु तद् अग्रे अपि कुर्मः, किन्तु गतवर्गे वयं तत्र आधार आधेयता भावः कः इति दृष्टवन्तः, अपि तदनन्तरं तत्र ससम्बन्धिकाः इति दृष्टवन्तः। अतः तत्र आरभ्य तत्र पठामः, तदनन्तरं तत्र अग्रेसरामः। तर्हि तत्र आधाराधेयता इति तत्र पश्यामः, तत्र अस्तु हा अनघा भगिनी नमस्कारः। तत्र यज्ञदत्तः आसने उपविष्टः अस्ति चेत् यज्ञदत्ते किम् अस्ति, अपि आसने किमस्ति इति किञ्चित् वदति वा भगिनि? अनघा भगिनि, अस्तु तर्हि तत्र सुधा भगिनी वदति वा?
आं भगिनि, आम् आं महोदय। यज्ञदत्तः आदेयता अस्ति, आसनम् अधिकरणता अस्ति।
यदि यज्ञदन्ते आदेयता अस्ति, समीचीनम्,
आदेयता अस्ति, आसने अधिकरणता अस्ति, ततः आसननिष्ठा अधिकरणता अथवा आसनवर्तिनी अधिकरणता, यज्ञदत्तनिष्ठा आदेयता, यज्ञदत्तवर्ति आदेयता,
यज्ञदत्तवर्तिनी आदेयता,
यज्ञदत्तवर्तिनी आदेयता।
हा, यतोहि तत्र वर्तते इति, तत्र वर्तते इति तत्र इति अर्थे तत्र वर्ति, किन्तु तत्र इनि तत्र वर्ति पुल्लिङ्गे, वर्तिनी इति स्त्रीलिङ्गे, आदेयता इति स्त्रीलिङ्गे अस्ति इति कृत्वा वर्तिनी इति।
अस्तु अस्तु,
हा समीचीनम्। अपि तत्र निष्ठा अस्ति चेत् निष्ठः इति पुल्लिङ्गे, निष्ठा इति स्त्रीलिङ्गे, निष्ठा एव भवती उक्तवती, समीचीनम्। धन्यवादः भगिनि। अस्तु, योगेन्द्रमहोदय प्रश्नः अस्ति वा?
आम् आम्, प्रश्नः अस्ति, आधेयता इत्युक्ते अर्थः किम्? आधेयता, अधिकरणता, तस्य विवरणं किम् अस्ति, अर्थः किं भवति?
इदानीं लौकिकरूपेण एतत् उक्तमस्ति, तत्र अधिकरणम् इति जानाति खलु, अधिकरणं नाम किम्? तत्र भवान् आसन्दे उपविशति, तत्र अधिकरणं किम् इत्युक्ते भवान् किं वदति?
अधिकरणम् इत्युक्ते यस्मात् यस्मै गच्छति सः यस्मै ददाति
करणं नाम सपोर्ट् इति यस्मिन् भवान् उपविष्टवान् अस्ति तद् अधिकरणम् आसन्दे उपविष्टवान् अस्ति चेत् आसन्दः अधिकरणम्
अस्तु
तत्र अधिकरणं नाम यस्मिन् वर्तते किमपि अस्ति तत्र आसन्दे किम् अस्ति आसन्दे यज्ञदत्तः अस्ति खलु हा अतः यज्ञदत्तस्य अधिकरणम् आसनम् इति भवति खलु समीचीनं वा यज्ञदत्तस्य आसनं यज्ञदत्तस्य अधिकरणम् आसनम् इति समीचीनं वा
आम् आम्
इदानीं तत्र सुन्दरः बालकः इति वदामः तत्र अथवा उन्नतः वृक्षः तत्र उन्नतः इति पदस्य भाववाचकपदम् अस्ति औन्नत्यम् अथवा सुन्दरम् इति तत्र सौन्दर्यम् अथवा सुन्दरत्वम् अथवा सुन्दरता इति अस्ति खलु
आम्
हा अत्र आधारः अधिकरणम् अस्ति इति कृत्वा तत्र अधिकरणता इति तस्य भावः आसनम् अधिकरणम् अतः आसने अधिकरणता अस्ति अवगच्छति वा महोदय
आम् अवगच्छामि किञ्चित् किञ्चित् अवगच्छामि
तादृशमेव तत्र आसनम् अधिकरणम् इति कृत्वा तस्य कस्य अधिकरणम् इति वदामः तत्र यज्ञदत्तस्य अधिकरणम् अतः यज्ञदत्तस्य नाम भवति आदेयः यज्ञदत्तः आसनस्य आदेयः अस्ति यतोहि आसनं तस्य अधिकरणम् अस्ति
तस्मिन् आदेयता आदेयता
अतः अतः यज्ञदत्ते आदेयता अस्ति
आदेयता अस्ति
हा इति समीचीनम् अस्तु तत्र एतदेव एषः एव विषयः आरम्भे भवति चेत् समीचीनम् इति चिन्तितवान् किन्तु भवान् समीचीनं प्रश्नं पृष्टवान् महोदय धन्यवादः इदानीं तत्र भवानी भगिनी तत्र पुटसङ्ख्या पञ्च तत्र उपरि एकं चित्रमस्ति तत्र एकवारं पठित्वा तत्र विवरणं करोति वा भगिनि भवानी भगिनी अस्तु तर्हि तत्र हा अना भगिनी भवती प्रयत्नं कर्तुम् इच्छति वा
महोदय केवलं शृणोमि अद्य
किं भगिनि
केवलं शृणोमि अद्य
तत्र चित्रमस्ति पुटसङ्ख्या पञ्च तत्र उपरि चित्रसङ्ख्या अस्ति तत्र हा तदपि पञ्च तत्र
केवलं शृणोमि अद्य
शृणोति अस्तु 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 भगिनि अस्तु अस्तु हा क्षम्यताम् अस्तु अस्तु चिन्ता मास्तु अस्तु तत्र सावित्री भगिनी वक्तुमिच्छति वा तत्र
आधेयता
हा भगिनि तत्र आदेयः तत्र आदेयः कः इति उक्त्वा तदनन्तरं तत्र
निरूपकः इति अस्ति आरम्भतः किल अपेक्षते
तत्र आदेयः यज्ञदत्तः आदेयः
यज्ञदत्तः तदा अस्तु यज्ञदत्तः आधेयः तस्मिन् अतः तस्मिन् आधेयत्वम् अस्ति अतः आधेयता अस्ति यज्ञदत्ते आधेयता वर्तते तदेव आधेयत्वम् इत्यपि वक्तुं शक्नुमः
तत्र यज्ञदत्ते आधेयता वर्तते इति तत्र क्रियापद उपयुज्य तादृशं वर्णनं कुर्मः किन्तु तत्र केवलं कीदृशी आधेयता इति प्रश्नः अस्ति चेत् तत्र यज्ञदत्तनिष्ठा
आधेय अस्तु महोदय यज्ञदत्तनिष्ठा आधेयता अस्तु अस्तु महोदय
तत्र अधिकरणम् इति आरभ्य तत्र वर्णनं करोतु.
आम् अधिकरणम् आसनम्
आसनम् अधिकरणम् अस्ति
आसनम् अधिकरणम् अस्ति इत्युक्ते आसने अधिकरणता वर्तते. आसने तद् आसने अधिकरणत्वम् अस्ति इति अपि वक्तुं शक्नुमः. इत्युक्ते तत्र अधिकरणनिष्ठा आसने
न आसननिष्ठा अधिकरणता
क्षम्यताम् आसननिष्ठा अधिकरणता
अथवा आसनवर्तिनी
आसनवर्तिनी अधिकरणता अस्ति
अस्ति तत्र तादृशी अधिकरणता तत्र आसननिष्ठा अधिकरणता. अतः तत्र इदानीं तत्र वस्तुद्वयमस्ति. धन्यवादः भगिनी. तत्र इदानीं वस्तुद्वयमस्ति तत्र पदार्थद्वयं तत्र अधिकरणता इति आधेयता. इदानीं तत्र तयोः मध्ये कः सम्बन्धः इत्युक्ते तत्र वयं दृष्टवन्तः तत्र द्वयमध्ये सम्बन्धः अस्ति. तत्र ससम्बन्धिकाः पदार्थाः शब्दाः इति वदामः. तत्र ससम्बन्धिकाः शब्दाः इत्युक्ते किं तत्र कल्याणी भगिनी वक्तुम् इच्छति वा तत्र ससम्बन्धिकाः शब्दाः इत्युक्ते किम्? अस्तु शोभा भगिनी वक्तुम् इच्छति वा
ससम्बन्धिकाः शब्दाः शब्दाः इत्युक्ते तत्र आधेयता अधिकरणता प्रतियोगित्वादयः वक्ष्यमाणाः वा साकाङ्क्षाः ससम्बन्धिकाः पदार्थाः इति. इत्युक्ते उदाहरणार्थं तत्र रामः पुत्रः इत्युक्तौ कस्य इति प्रश्नः आगच्छति झटिति आगच्छति.
तत्र इति शृण्मश्चेत् तत्र
तस्य पिता अपि माता स्तः एव इति.
तत्र पिता कः माता का इति प्रश्नः मनसि उदेति
भवति एव
जिज्ञासा भवति. अतः तत्र तत्र ये यस्य तत्र अतः तत्र ये प्रश्नद्वयम् अथवा अनेके प्रश्नाः भवन्ति. अत्र तु पुत्रः अपि पिता इति स्वीकृतम् अस्ति. अतः तत्र शब्दद्वयं तत्र ससम्बन्धिकशब्दद्वयं किम् इति वक्तुं शक्नुमः. तत्र पुत्रः
रामः अस्तु तत्र पिता अपि रामः स्वीकृते पुत्रत्वम् इति भवति अपि च पितृत्वम् इति अपि भवति.
अतः तत्र तयोः मध्ये तत्र ससम्बन्धः
मध्ये सम्बन्धः भवति अधुना.
अतः तत्र
तौ
ससम्बन्धिकाः शब्दाः
ससम्बन्धिकाः पदार्थाः
इति समीचीनं भगिनि. तत्र रामः पुत्रः इति यदि शृण्मः तत्र प्रश्नः उदेति तस्य पिता कः अथवा तस्य माता का अथवा कापि माता इति तत्र कौसल्या माता इति शृण्मश्चेत् तत्र पुत्रः कः अथवा पुत्री का इति प्रश्नः उदेति. अतः ससम्बन्धिकः शब्दाः पुत्रः पिता अथवा पुत्रः माता अथवा माता पुत्री माता पुत्रः इति ससम्बन्धिकाः शब्दाः भवन्ति. अतः तादृशमेव अत्र आदेयता अपि
अधिकरणता
तत्र यदि यज्ञदत्तः तत्र आसनम् अधिकरणम् इति शृण्मश्चेत् तत्र प्रश्नः कः उदेति?
यज्ञदत्तः
न आसनम् अधिकरणम्
आसनम् अधिकरणम् इति शृण्मः चेत् तत्र आसनमस्ति चेत् तत् अधिकरणता भवति.
न भगिनि तत्र प्रश्नः यथा तत्र रामः पुत्रः इति वदामः तत्र प्रश्नः उदेति तस्य पिता का
तस्य
पिता कः अथवा माता का इति. तादृशम् एतत् आसनम् अधिकरणम् इति यदि शृण्मः तदा कः प्रश्नः उदेति? अधिकरणता कथम् आगतम् एषा अधिकरणता? तत्र आदेयः कः अथवा तत्र कः उपविष्टवान् अथवा का उपविष्टवती अस्मिन् आसने इति प्रश्नः उदेति उदेति. समीचीनं भगिनि.
महोदय कस्य अधिकरणता इत्युक्ते उद्योगस्य इति वक्तुं शक्यते वा? तस्य अधिकरणता आसनस्य इति एव वक्तव्यं.
पुनः पृच्छतु भगिनि.
अत्र आसनस्य विषये तस्य अधिकरणता आसनम् इति इत्युक्ते आसननिष्ठा अधिकरणता इति कस्य अधिकरणता इति प्रश्ने सति तत्र
कस्य अधिकरणता इति न भवति. अग्रे तस्य विवरणं कथं
कुर्मः
उत्तम उत्तमप्रश्नः भगिनि. तत्र कस्य इति न भवति किन्तु इदानीमेव पश्यामः तत्र अन्यरीत्या तत्र प्रश्नः भवति षष्टि इति न किन्तु अन्यरीत्या एषः एव प्रश्नः भवति. कस्य इति केवलं तत्र कस्य अधिकरणम् इति भवति प्रश्नः इदानीं यतः तत्र केवलं तत्र उदाहरणार्थं तत्र पुत्रः अपि पिता स्वीकृतः खलु अतः तत्र प्रश्नः आसीत् कस्य पुत्रः इति तादृशं कस्य अधिकरणम् इति तत्र ससम्बन्धिताः शब्दाः इति सूचनार्थं मनसि स्थापयितुम् उदाहरणं स्वीकृतं पुत्रः पिता अत्र यज्ञदत्तः अपि आसनम् आदेयः अधिकरणम् इति. समीचीनप्रश्नः भगिनि. तत्र कस्य अधिकरणता इति न पृच्छामः किन्तु इदानीम् अग्रिमविषयः सः एव भवति. अस्तु धन्यवादः भगिनि. अस्तु न
श्रूयते.
श्रूयते भगिनि पृच्छतु. सरला भगिनि प्रश्नः अस्ति वा?
नास्ति महोदय.
अस्तु अस्तु भवती पठितुम् इच्छति वा अग्रे? अस्तु अस्तु अग्रे तत्र नरसिंह महोदय अग्रे पठति वा? तत्र तत्र साकाङ्क्षाः पदार्थाः इति पुटसङ्ख्या पञ्च उपरि नरसिंह महोदय अस्ति वा? अस्तु
अहं पठामि वा? नास्ति
महोदय. अस्तु के वि महोदय पठतु महोदय. अस्तु अस्तु तत्र के वि महोदय पठतु तदनन्तरं नरसिंह महोदय पठतु. अस्तु हा
अहं पठामि वा?
हा के वि महोदय पठतु महोदय. तत्र
मम समीपे नास्ति महोदय. अहं नरसिंह मम समीपे पुस्तकं नास्ति.
पुस्तकं तु तत्र लभ्यते खलु महोदय. पी डि एफ् तु सर्वदा ईमेल् मध्ये प्रेषयामः तत्र लिङ्क् पी डि एफ् अत्र लभ्यते पी डि एफ् अत्र लभ्यते इति अतः तत्र पुस्तकं नास्ति इति कथं वयं वक्तुं शक्नुमः? तत्र ईमेल् पश्यतु महोदय पी डि एफ् लभ्यते तत्र पुटसङ्ख्या तु पञ्च इति.
अत्र किमस्ति तत्र किञ्चित्
अस्तु अस्तु अनन्तरमेव भवान् पठतु महोदय इदानीं मास्तु किन्तु पी डि एफ् लभ्यते तत्र पश्यतु पञ्चम पञ्च अस्तु के वि महोदय पठतु महोदय.
तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपक इत्युच्यते.
साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपकः इति उच्यते. नाम यदि रामः पुत्रः इति वदामः तत्र अपेक्षा का अस्ति तत्र तस्मिन् समये तत्र पिता कः अथवा माता का इति माता का इति अपेक्षा अस्ति अस्माकम्. इदानीं तत्र तत्र मातुः नाम अथवा पितुः नाम तत्र श्रोतुम् इच्छामः तथा एव यदि शृण्मः तदा अस्माकं ज्ञानं सम्पूर्णं भवति खलु. तत्र रामः पुत्रः इति श्रवणानन्तरं पिता कः अथवा माता का इति प्रश्नः उदेति तत्र पितुः नाम अपि मातुः नाम यदि शृण्मः तदा तदा वयं चिन्तयामः अस्तु इदानीं ज्ञानं पूर्णमस्ति इदानीं रामः पुत्रः इति तस्य ज्ञानं पूर्णम् अभवत्। अतः यत् अतः तत्र यत् यः पदार्थः वयं प्रतीक्षां यस्य पदार्थस्य अपेक्षां कुर्मः, नाम यः तत्र साकाङ्क्षः पदार्थः यम् अपेक्षते सः निरूपक इति उच्यते। तत्र दशरथस्य पुत्रः इति रामः इति यदि वदामः, दशरथः इति पिता इति ज्ञानं यदा भवति तत्र दशरथः निरूपकः इति वदामः,
निरूपकः
यतोहि तस्य ज्ञानेनैव तत्र पिता कः इति तस्य उत्तरस्य प्रश्नस्य उत्तरस्य ज्ञानेन परिपूर्णं ज्ञानं भवति अस्माकम्, अतः तत्र निरूपकः इति वदामः। अतः अत्र दशरथः निरूपकः, रामः निरूप्यः इति वदामः। अत्र किं भवति, इदानीम् अधोभागे चित्रमस्ति महोदय, तत्र आदेयता किमस्ति, आदेयता
आदेयता निरूपकः अधिकरणता,
हा नाम अधिकरण तत्र आसने अधिकरणता अस्ति इति यदि भवान् वदति तस्मिन् समये मम मनसि प्रश्नः उदेति, अस्तु तत्र अधिकरणता अस्ति वा, अतः तत्र कोऽपि उपविष्टवान् वा, तत्र आदेयः कः इति, अतः आदेयता विषये मम मनसि प्रश्नः उदेति, अतः आदेयता आदेयता इति एव पदार्थः अहम् तस्य अपेक्षा मम मनसि अस्ति, अतः आदेयता निरूपकः भवति अधिकरणतायाः। पुनः पुनः अधिकरणता कीदृशी अस्ति,
अधिकरणता निरूपकः आधेयता,
हा नाम तत्र अधिकरणता आधेयता यज्ञदत्ते अस्ति इति यदि शृण्मः तदा भवति, अस्तु यज्ञदत्तः आधेयः अस्ति चेत् तत्र अधिकरणं किम्, अधिकरणता कीदृशी, कुत्र अस्ति एषा अधिकरणता इति
आसने अस्ति,
अतः अधिकरणता कुत्र अस्ति इति ज्ञानेन पूर्णं भवति अस्माकं ज्ञानं तत्र, अतः अधिकरणता निरूपकः इति वदामः। यः पदार्थः निरूपयति सः निरूपकः, तत्र यः गायति स तत्र शब्दः कः, यः गायति सः गायकः, हा तादृशः यः निरूपयति सः निरूपकः, गायिका हा गायकः निरूपकः कर्ता, तत्र एषः निरूपयति अतः एषः निरूपकः, यं निरूपयति तदस्ति निरूप्यः, निरूप्यते तत्र निरूपकः निरूप्यं निरूपयति अथवा निरूपकेन निरूप्यः निरूप्यते इति भवति। अतः तत्र इदानीम् एषः एव अस्माकं विषयः, अतः तत्र यत् यः प्रश्नः तत्र सावित्री भगिन्या पृष्टः तत्र तत्र अधिकरणता तत्र कस्य इति स्थाने इदानीं भवति तत्र अधिकरणतायाः निरूपकः कः इति तत्र तयोः तत्र आदेयता अधिकरणता तयोः मध्ये निरूपकनिरूप्यभावः अस्ति इति वदामः, अपि तत्र निरूपकनिरूप्यभावः कीदृशी इति इदानीम् अग्रे एव भवति। केवलं महोदय नमस्कारः, धन्यवादः महोदय, नर्स् महोदय पठितुं शक्नोति वा, अस्तु
एकनिमिषं महोदय।
इदानीं तत्र निरूप्यनिरूपकभावः कीदृश तत्र कीदृशसम्बन्धः इति इदानीमेव पश्यामः। अस्तु
यज्ञदत्त चिन्तयति अहं भारं स्थापयामि
अग्रिमे पुटे महोदय, अग्रिमे पुटे हा तत्र निरूप्यनिरूपकभावव्यवस्थापनम् इति स्थूल
निरूप्यनिरूपकभावव्यवस्थापनं अत्र आदेयः व्यवस्थापनं तत्र लोके निरूपक इत्यनेन यः वदति सः बोध्यते, यस्य विषये उच्यते सः निरूप्यः, तत्र साम्प्रदायिकम् उदाहरणं यथा व्यासः कृष्णकथां निरूपयति तत्र निरूपकः निरूप्यते किम् इति अत्र उक्तम् अस्ति यदि कोऽपि किमपि वदति
व्यासः कः अस्ति उदाहरणे
व्यासः निरूपकः अस्ति कृष्णकथा निरूप्य अस्ति अत्र
हा समीचीनम् इदानीं तत्र लोके निरूपकः इत्यनेन यः वदति सः बोध्यते नाम किम्
बोध्यते बोधनं करोति तत् निरूपकः अस्ति कित् कत् क विषये बोधनं करोति तत् निरूप्य भवति
हा यस्मिन् विषये किमपि बोधः भवति सः सः विषयः निरूप्यः यः यः वदति नाम यत् यत् वदामः तत्र व्यासः इति व्यासः कृष्णकथां लिखितवान् इति वदामः तत्र कृष्णकथाम् इति ग्रन्थः कृष्णकथा इति ग्रन्थः अस्ति इति वदामश्चेत् तत्र प्रश्न उदेति तत्र कः रचिता कः लिखितवान् इति लेखकः कः इति अतः तत्र व्यासः इति यदि ज्ञानं भवति तत्र पूर्णं भवति अस्तु एषः लेखकः इति अतः तत्र व्यासः भवति निरूपकः कृष्णकथा भवति निरूप्या यतोहि निरूप्यः इति विशेषणमस्ति अतः कृष्णकथा स्त्रीलिङ्गे अस्ति अतः निरूप्या इति अस्ति व्यासे तत्र उपरि व्यासे भावः कः अस्ति निरूपकः इति तस्य भावः कः
निरूप्य अस्य भावः अधेयत अस्ति निरूपक इत्य भावः
न न अत्र व्यासः अपि कृष्णकथा इति चित्रे व्यासे उपरि किम् अस्ति
व्यास उपरि निरूपकता अस्ति
हा नाम निरूपकता व्यासे अस्ति यतोहि व्यासः निरूपकः निरूपकः इति पदस्य तत्र तस्य भाववाचकशब्दः अस्ति निरूपकता यज्ञदत्तः आदेयः अतः यज्ञदत्ते आदेयता अस्ति व्यासः निरूपकः अतः व्यासे निरूपकता अस्ति कृष्णकथा निरूप्या अस्ति अतः कृष्णकथायां किमस्ति
निरूप्यता अस्ति
निरूप्यता अस्ति इदानीं तत्र निरूपकता अस्ति निरूप्यता अस्ति तत्रापि तत्र स्वसम्बन्धिकाः शब्दाः ते हा इदानीं तत्र आदेयता अपि अधिकरणता तत्रापि तादृशी परिस्थितिः अस्ति नाम आदेयता निरूपकः अस्ति अधिकरणतायाः अधिकरणता अपि आदेयतायाः निरूपकः अस्ति
अत्र तु निष्ठा इति वक्तुं शक्नुमः व्यास
हा हा व्यासनिष्ठे निरूपकता कृष्णकथानिष्ठा निरूप्यता इति वक्तुं शक्नुमः हा समीचीनम् अस्तु धन्यवादः नरसिंह महोदय अग्रे हा अग्रे अग्रे पद्मा भगिनी पठितुम् इच्छति वा
अत्रापि पूर्ववत् निष्ठपदप्रयोगेन व्यासनिष्ठनिरूपकता निरूप्यता तु कृष्णकथा निष्ठा इति निरूपणं भवति
नाम पुनः शब्दैः वदतु
तत्र अत्र एकवाक्यमस्ति व्यासः कृष्णकथां निरूपयति इति अतः व्यासः कथां लिखति अतः व्यासनिष्ठा निरूपकता व्यासः एव निरूपकः अतः व्यासनिष्ठनिरूपकता कृष्णकथा कृष्णकथायां निरूप्यता अस्ति अतः कृष्णकथा निष्ठा निरूप्यता इति अर्थः
समीचीनं हा अपि व्यासनिष्ठा निरूपकता समीचीनं हा समीचीनं भगिनि
अस्मिन् उदाहरणे व्यासः एव निरूपकः कृष्णकथा च निरूप्या एव परन्तु आधारता आधेयता च इत्यनयोः परस्परं निरूपकता निरूप्यता च भवति आधेयता केन निरूपिता इति प्रश्नः इव अधिकरणता केन निरूपिता इति प्रश्नः अपि खलु तुल्यः अतः उभयोः परस्परं निरूप्यनिरूपकभावः भवति।
हा तावत्पर्यन्तम् अस्तु। हा वदतु भगिनि।
आधारता आदेयताभावः वयं पूर्वं दृष्टवन्तः, तादृशमेव अत्र निरूपकः निरूप्यभावः निरूपकनिरूप्यभावः अस्ति। आधारता
इदानीं तत्र उदाहरणे तत्र प्रथमवाक्यं पठतु। तत्र अस्मिन् उदाहरणे व्यासः एव
निरूपकः कृष्णकथा च निरूप्या एव
इति तत्र तस्य वाक्यस्य अर्थः कः इत्युक्ते तत्र
आधारः
न तत्र व्यासे निरूपकता अस्ति, कृष्णकथायां निरूप्यता अस्ति इदानीं तत्र कृष्णकथा व्यासं निरूपयति इति वक्तुं शक्नुमः वा?
आम् परस्परसम्बन्धः अस्ति
अत्र। हा किन्तु अस्मिन् साम्प्रदायिक उदाहरणे परस्परसम्बन्धः अस्ति किन्तु परस्परनिरूप्यता निरूप्यकभावः नास्ति, यतोहि तत्र व्यासः तत्र किं भवति तत्र व्यासः इति यदि शृण्मः तत्र कृष्णकथा इति एव ज्ञानेन तत्र परिपूर्णं भवति वा? न, यतोहि व्यासः अनेके तत्र अनेकान् ग्रन्थान् लिखितवान् इति कृत्वा तत्र भिन्नः अस्ति परिस्थितिः, किञ्चित् भिन्ना अस्ति। अतः तत्र व्यासः निरूपकः कृष्णकथा निरूप्या, किन्तु तत्र विपरीतदिशि वक्तुं न शक्नुमः। अतः तत्र अस्मिन् उदाहरणे व्यासः एव निरूपकः कृष्णकथा च निरूप्या एव तत्र विपरीततया वक्तुं न शक्नुमः अस्मिन् उदाहरणे। किन्तु परन्तु आधारता आदेयता इति स्थाने तत्र परिस्थितिः का इदानीं तत्र पठतु इत्यनयोः।
परन्तु आधारता आधेयता च इत्यनयोः परस्परं निरूपकता निरूप्यता च भवति।
हा अतः एव तत्र चित्रं यत् अस्ति तत्र आदेयता निरूपकः अस्ति अधिकरणतायाः, पुनः अधिकरणता अस्ति निरूपकः आदेयतायाः इति। अतः तत्र शरः तत्र विपरीतदिशि अपि गन्तुं शक्नोति। तत्र परस्पर परस्परनिरूप्य निरूपकभावः अस्ति यत् साम्प्रदायिक उदाहरणे नास्ति इति। अतः भेदः अस्ति। हा इदानीं तत्र अतः तत्र इदानीं तत्र परस्परनिरूपकता निरूप्यता अस्ति इति कृत्वा तत्र प्रश्नद्वयं भवति तत्र। अतः इदानीम् अग्रिमवाक्यं पठतु भगिनि। आदेयता
आधेयता केन निरूपिता इति प्रश्नः इव अधिकरणता केन निरूपिता।
हा एकनिमिषं भगिनि, आदेयता केन निरूपिता इति प्रश्नः अस्ति, तत्र उत्तरं किम्?
अधिकरणता
आदेयता केन निरूपिता? अधिकरणतया निरूपिता आधेयता इति भवति। हा तादृशम् इदानीम् अग्रे अधिकरणता
अधिकरणता केन निरूपिता इति प्रश्नः अपि खलु तुल्यः।
हा इदानीं
तादृशमेव अधिकरणता केन निरूपिता इत्युक्ते अधिकरणता आधेयभावेन निरूपिता अस्ति।
हा अथवा आदेयतया
निरूपिता
अधिकरणता भवति इति समीचीनम्। हा अतः तत्र
अतः उभयोः परस्परं निरूप्य निरूपकभावः भवति।
हा अतः आदेयता निरूपकः इति चिन्तितुं शक्नुमः, अधिकरणता अपि निरूपकः इति चिन्तयितुं शक्नुमः। अतः तत्र परस्परनिरूप्य निरूपकभावः अस्ति तयोः मध्ये, आदेयता अधिकरणता। इदानीं तत्र निरूपिता इति पदम् इदानीं तत्र आगच्छति। इदानीं अस्तु, धन्यवादः भगिनी, समीचीनमस्ति पद्मभगिनी, धन्यवादः। अस्तु तत्र अग्रे तत्र शैलजा भगिनी पठितुमिच्छति वा?
महोदय
अग्रिमपुटे उपरि तत्र चित्रद्वयमस्ति किन्तु तत्र प्रथमतया तत्र अधोभागे तत्र इह यज्ञदत्तः इति तत्र तत् पठतु भगिनि.
इह यज्ञदत्तः आधेयतावान् इति वक्तुम् आश्रय इति पदमुपकरोति. पदम् आश्रय इति पदम् उपकरोति. तथा च आसननिष्ठा अधिकरणतानिरूपित आधेयताश्रयः यज्ञदत्तः इति.
हा तावत् तावत्पर्यन्तं भगिनि तावत्पर्यन्तम्. इदानीं तत्र हा तत्र एकमेकं पश्यामः. तत्र आसनं तत्र प्रथमचित्रं पश्यतु भगिनि. तत्र आसनम् इति अस्ति.
आम् आं महोदय.
उपरि उपरि आसनम् इति अस्ति. शरः ऊर्ध्वगमनी गमनशरः अस्ति वा अधोगमनशरः अस्ति वा?
ऊर्ध्वगमन
ऊर्ध्वगमन हा ऊर्ध्वगामिनीशरः. तत्र ततः तत्र अधिकरणता इति भवति. अतः तत्र वयं किं वदामः? आसननिष्ठ अधिकरणता. यतोहि आसने किम् अस्ति? अधिकरणता अस्ति. अतः आसननिष्ठ अधिकरणता इति भवति. इदानीं तदनन्तरम् आसननिष्ठ आसननिष्ठ अधिकरणता. इदानीं तत्र अधिकरणता इति आरभ्य तत्र आदेयता गन्तुम् इच्छामः. अतः तत्र किं कुर्मः? निरूपिता इति वदामः. अतः आसननिष्ठ अधिकरणता निरूपित आदेयता. किन्तु इदानीम् अधोभागे आगन्तुम् इच्छामः. तत्र उपरि गन्तुं न इच्छामः किन्तु अधः गन्तुम् इच्छामः. तत्र किं कुर्मः? वान् अथवा
आश्रयः
आश्रयः इति उक्त्वा अधोभागे आगच्छामः. तत्र यज्ञदत्तः. इदानीं तत्र यज्ञदत्तः कीदृशः इति प्रश्ने सति यज्ञदत्ते किम् अस्ति? यज्ञदत्ते किम् अस्ति? आदेयता अस्ति खलु. अतः तत्र प्रथमवाक्यं पठतु यत् भवती पठितवती. इह यज्ञदत्तः
आधेयता आधेयतवान् इति वक्तुम् आश्रय इति पदम् उपकरोति.
तत्र आधेयतावान् इति तत्र पदं कीदृशम् इति वक्तुं शक्नोति वा?
आधेयतावान् कः यस्य आधेयता अस्ति?
हा समीचीनं. तत्र यस्य अथवा यस्मिन् वा तत्र हा गुणवान् तत्र धनवान् बुद्धिमान् इति भवति खलु तत्र. यस्य अथवा यस्मिन् तत्र धनमस्ति सः धनवान्. तत्र यस्मिन् आधेयता अस्ति सः आधेयतावान् इति वक्तुम् इच्छामः. तत्र आधेयतावान् इति स्थाने वयम् अन्यत् पदम् तत्र अन्यत् अन्यपदस्य उपयोगम् अपि कर्तुं शक्नुमः. तत् किं पदम्?
आधेयवान् आश्रय आश्रय
आश्रय हा तत्र एतत् पदम् उपकरोति उपकारं करोति सहायं करोति. आदेयवान् इति स्थाने तद् न वदामः. किन्तु किं वदामः? आदेयता आश्रयः इति वदामः. आदेयतावान् इति स्थाने आदेयता आश्रयः इति वदामः. अतः यज्ञदत्तः कीदृशः इति प्रश्ने सति वयं किं कुर्मः? अस्तु, यज्ञदत्ते आदेयता अस्ति. तत्र कीदृशी आदेयता? केन निरूपिता आदेयता? एषा आदेयता यत् यज्ञदत्ते अस्ति इदानीं?
यज्ञदत्त आसनं
तत्र कीदृशी आदेयता? इदानीमेव निरूपनिरूपकभावः दृष्टवन्तः खलु. अतः केन निरूपिता अस्ति एषा आदेयता या यज्ञदत्ते अस्ति? समीचीनं समीचीनं. अतः तत्र शैलजा भगिनी तत्र आदेयता केन निरूपिता? अधिकरणतया निरूपिता खलु. अतः यज्ञदत्ते या आदेयता अस्ति सा आदेयता अधिकरणतया निरूपिता अस्ति. अतः तत्र अधिकरणता निरूपित आदेयता वान् यज्ञदत्तः इति वदामः. किन्तु सा अधिकरणता कुत्र अस्ति?
अधिकरणता कुत्र अस्ति आसन
आसने अस्ति अतः आसननिष्ठ अधिकरणता सा अधिकरणता आदेयतां निरूपयति सा आदेयता यज्ञदत्ते अस्ति तत्र एतत् आश्रयः भान् निष्ठ इति एतत् सर्वं स्वीकृत्य वयं तत्र किं कुर्मः डिस्क्रिप्शन् प्रिसैस् डिस्क्रिप्शन् इति वदामः तत्र यत् या स्थितिः अस्ति तस्य एव विवरणं तत्र यज्ञदत्ते अनेके तत्र अनेकाः आदेयताः स्युः किन्तु इदानीम् एकस्याः एव विषयः इति कृत्वा आदेयता अस्ति चेत् अन्यासाम् आदेयतायाः तत्र अन्ये भवेयुः किन्तु तत्र पृथक् कर्तुम् इच्छामः एषा आदेयता इति तत् कथं वदामः एषा आदेयता अधिकरणतया निरूपिता सा अधिकरणता पुनः कुत्र अस्ति सा अधिकरणता आसने अस्ति अतः आसननिष्ठ अधिकरणतया निरूपित आदेयता यज्ञदत्ते अस्ति इति अत्र तादृश आदेयतावान् यज्ञदत्तः इति तत्र यज्ञदत्तः यः अस्ति तस्य विवरणं भवति तत्र चित्रे किं कुर्मः आसन इति आरभ्य यज्ञदत्तपर्यन्तं गन्तुम् इच्छामः अतः उपरि गन्तुं निष्ठा इति उपयोगः भवति तदनन्तरं निरूपिता अथवा निरूपिका इति उपयुज्य अन्यभागं गच्छामः तदनन्तरम् आदेयता इति यत्र स्मः तदनन्तरम् अधोगमनार्थं वान् अथवा आश्रयः इति प्रयोगः भवति अतः तत्र आसनारभ्य यज्ञदत्तपर्यन्तम् इदानीं गतवन्तः इदानीं विपरीतदिशे कथं गच्छामः इति पश्यामः तर्हि समीचीनं भगिनी शैलजा भगिनी धन्यवादः
धन्यवादः
अस्तु इदानीं तत्र सुबोध महोदय अग्रे पठितुम् इच्छति वा
प्रयत्नं करोमि
हा इदानीं तत्र यज्ञदत्तः इति तावत् भगिनी पठितवती इदानीं तत्र यज्ञदत्तनिष्ठा इति तद् वाक्यं पठतु महोदय
यज्ञदत्तनिष्ठा आधेयता निरूपित अधिकरणताश्रयः आसनम् इति उभयं साधु
हा इदानीं तत्र चित्रे यदस्ति तस्य विवरणम् अथवा तत्र यत् अस्य विवरणमेव चित्रेण दर्शितं हा अतः तत्र इदानीं वयं किं कुर्मः आसनं कीदृशम् इति वर्णितुम् इच्छामः अतः यज्ञदत्तः इति यत्र अस्ति ततः आरभ्य तत्र एकमेकं वदतु यज्ञदत्ते किम् अस्ति
यज्ञदत्ते आधेयता अस्ति
अतः तत्र आधेयतायाः वर्णनं कथं भवति यज्ञदत्तनिष्ठ आदेयता समीचीनम् इदानीं तत्र सा आदेयता किं निरूपयति
सा आधेयता अधिकरणतां निरूपयति
हा अतः तत्र अधिकरणता कीदृशी अधिकरणता
तावत् आश्रयः
न अधिकरणता कीदृशी इत्युक्ते अधिकरणता कीदृशी इत्युक्ते अस्तु अस्तु अधिकरणतायाः आश्रयः आसनं समीचीनं हा इदानीं सर्वं मिलित्वा वदतु तत्र अतः
यज्ञदत्तनिष्ठा आधेयता
निरूपित
अधिकरणता आश्रयः आसनम्
हा इति तत्र आसने अधिकरणता अस्ति अधिकरणता केन अथवा कया निरूपिता अधिकरणता आदेयताया निरूपिता अस्ति सा आदेयता कुत्र अस्ति कीदृशी अस्ति सा आदेयता यज्ञदत्तनिष्ठा अस्ति अतः यज्ञदत्तनिष्ठा आदेयता अस्ति सा आदेयता अधिकरणतां निरूपयति अतः यज्ञदत्तनिष्ठा आदेयता निरूपित अधिकरणता इति वक्तुं शक्नुमः सा अधिकरणता कुत्र अस्ति आसने अस्ति अतः आसनं कीदृशं भवति आसनम् अधिकरणतावत् यतोहि नपुंसकलिङ्गे अस्ति अधिकरणतावत् अथवा अधिकरणताश्रयः इति आसनम् इति भवति अतः आसनस्य विवरणम् अत्र दत्तं यज्ञदत्तनिष्ठ आदेयतानिरूपित अधिकरणताश्रयः आसनम् इति भवति। एतत् तत्र लौकिक उदाहरणं, तत्र यज्ञदत्तः अपि आसनम् इति। हा, एतावत् प्रश्नः अस्ति, प्रश्न कोऽपि प्रश्नः अस्ति वा? एतत् तत्र निष्ठ वान् आश्रयः निरूपित निरूप निरूप एतत् बहु बहुवारं वयं तस्य प्रयोगं करिष्यामः।
अहं वदामि,
प्रश्नः अस्ति वा महोदय? प्रश्नः अस्ति वा?
यदि यदि अहं वदामि, अधिकरणता निरूपिता आधेयतावान् यज्ञदत्तः, सम्यक् अस्ति वा?
सम्यक् नास्ति महोदय, यतोहि तत्र अधिकरणता कुत्र अस्ति इति तस्य विवरणमपि भवितव्यम्।
अधिकरणता आसने अस्ति,
हा, अतः तत्र आसने
आसने आसने अधिकरणता निरूपिता।
न न महोदय, तत्र किं भवति, महोदय, तत्र अधिकरणता आसने अस्ति इति एकं वाक्यं भवति खलु, तत् समीचीनं, किन्तु अन्यत् वाक्यं भवति अधिकरणतया निरूपित आदेयता आश्रयः यज्ञदत्तः इति भवति अन्यत् वाक्यं। किन्तु यदि विवरणं कर्तुम् इच्छामः, अखण्डरूपेण विवरणं कर्तुम् इच्छामः, नाम भागं कृत्वा न, खण्डं कृत्वा न, अखण्डरूपेण, अतः तत्र
आसने अधिकरणतया अस्ति,
न न न
आसने अधिकरणता अस्ति, आसनम् अधिकरणतया निरूपिता आधेयतावान् यज्ञदत्तः,
हा, किन्तु
सम्यक् अस्ति वा?
न न सम्यक् सम्यक् नास्ति महोदय, तत्र यतोहि तत्र आसने अधिकरणता इति अस्ति, तदनन्तरम् अन्यज्ञानम् अस्ति, तत्र अधिकरणता निरूपित आदेयता आश्रयः यज्ञदत्तः, तत्र भागद्वयम् अस्ति, किन्तु ज्ञानम् इति अखण्डज्ञानं भवेत्, नाम एकम् एकस्मिन् वाक्ये एव तत्र सर्वं सर्वान् विषयान् वयं वक्तुम् इच्छामः।
यस्,
अतः तत्र आसननिष्ठ आसने अधिकरणता अति अस्ति इति स्थाने वयं किं कुर्मः, भिन्नवाक्यम् इति मा कृत्वा आसननिष्ठ अधिकरणता इति वदामः, तस्य अर्थः कः, आसने अधिकरणता अस्ति, अतः आसननिष्ठ अधिकरणता इति एव वयं वदामः,
आसननिष्ठ अधिकरणता निरूपिता आधेयता आश्रयः यज्ञदत्तः,
हा, इदानीं समीचीनं, तत् तदेव तदेव वयं वक्तुम् इच्छामः, समीचीनं महोदय,
धन्यवादः,
हा, समीचीनं महोदय, अन्य प्रश्नः अस्ति वा? यतोहि एषः तत्र विषयः बहु बहुवारम् आगच्छति, अस्तु, तत्र सुबोध महोदय अग्रे पठति वा?
आम्, एवञ्च निरूप्यनिरूपकसम्बन्धः निरूप्यनिरूपकसम्बन्धः ज्ञातश्चेत् आधारधेयसम्बन्धः अपि ज्ञायते,
हा, तत्र आधार आधेयसम्बन्धः अपि ज्ञायते,
तथा च प्रकृते अपि द्रव्ये गुणः तिष्ठति इत्यत्र आधाराधेयभावः सुज्ञेयः,
हा, अस्तु, सुज्ञेयः। इदानीं तत्र प्रथमवाक्यस्य तत्र किञ्चित् वदतु, एवं च इति वाक्यम्,
एवं च सम्बन्ध निरूप्य निरूप्य च निरूप्यकसम्बन्धः
निरूप्य निरूपकसम्बन्धः
निरूप्य निरूप्यकसम्बन्धः ज्ञातुं
न ज्ञातः चेत्
वयं ज्ञातः चेत्
अस्माभिः ज्ञातः चेत्
अस्माभिः ज्ञातः चेत् आधारः आधारे आधारः आधारे
आदेयसम्बन्धः
ज्ञातुं शक्नुमः
हा अपि अस्माभिः ज्ञायते नाम यदि वयं निरूप्य निरूपकसम्बन्धः कः इति यदि जानीमः तदा आधारादेयसम्बन्धः कीदृशः इति अपि अस्माकं ज्ञानं भवति इति अतः इदानीं तत्र आधारादेयभावः तत्र तस्य अपि यत् पूर्वं तत्र यज्ञदत्तः आसनमिति लौकिक उदाहरणम् आसीत् इदानीं तत्र अग्रिमवाक्यं महोदय तत्र तथा च प्रकृते अपि
प्रकृते अपि द्रव्ये गुणः तिष्ठति इत्यत्र आधार आधेयभावः सुज्ञेयः
हा तत्र सुज्ञेयः सम्यक्तया ज्ञातुं शक्नुमः इदानीं किं ज्ञातुं शक्नुमः
द्रव्ये
गुणः द्रव्ये तिष्ठति यथा तत्र यज्ञदत्तः आसन्दे तिष्ठति इति तादृशगुणः द्रव्ये तिष्ठति इत्यत्र आधार आदेयभावः सम्यक्तया ज्ञातुं शक्नुमः इदानीं धन्यवादः महोदय इदानीं तत्र अग्रे तत्र अञ्जलि भगिनी पठितुम् इच्छति वा
आं महोदय
हा भगिनी अतः तत्र
चित्रं
चित्रं हा तत्र किं किम् अस्ति इति विवरणं कृत्वा गुणः कीदृशः इति विवरणं करोतु भगिनी गुणः कीदृशः इति
द्रव्ये गुणः तिष्ठति इति आधारेण द्रव्ये अधिकरणता अस्ति गुणः इति आधेयः अस्ति अतः गुणे आधेयता अस्ति अतः द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः गुणः
समीचीनं भगिनि हा समीचीनम् उत्तमं हा अतः गुणः कीदृशः यदा वयं वदामः गुणः द्रव्ये तिष्ठति तत्र गुणे आधेयता अस्ति अथवा गुणः आधेयः इति वदामः कीदृशः एषः आधेयः इत्युक्ते एतत् विवरणम् अपेक्षितम् अस्ति समीचीनं भगिनी हा इदानीं तत्र विपरीति दिशि गच्छतु तत्र द्रव्यं कीदृशम् इति
द्रव्यं कीदृशम् इति वदामि चेत् आधे गुणः आधेयः अस्ति द्रव्ये अधिकरणता अस्ति अतः गुणः गुणनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यम् इति वक्तुं शक्नोमि
समीचीनं भगिनि हा उत्तमं हा एतदेव अस्ति हा अस्तु समीचीनं धन्यवादः अस्तु इदानीम् अग्रे तत्र मूर्तिमहोदय वक्तुमिच्छति वा अस्तु जय राघव महोदय वक्तुमिच्छति वा
आं महोदय पूर्वम् एकः प्रश्नः अस्ति नमस्ते महोदय
नमस्कारः
एकः प्रश्नः अस्ति
वदतु भगिनि
यथा अधिकरणता आधेयता इति वदामः चेत् द्रव्ये अधिकरणता अस्ति गुणे आधेयता अस्ति किन्तु निरूप्य निरूपकः भावः यथा वदामः चेत् द्रव्यं निरूपकः अपि भवितुमर्हति निरूप्यः अपि भवितुमर्हति इति वदामः चेत् सम्यक् वा
समीचीनं भगिनि तदेव अस्ति समीचीनं हा तत्र आदेयता तत्र निरूपकः भवति अधिकरणतायाः तत्र निरूप तत्र द्रव्यं गुणम् इति तत्र निरूप्य निरूपकः इति साधारणतया न वदामः किन्तु तादृशं चिन्तनं समीचीनमेव साधारणतया केवलं तत्र आदेयता अधिकरणता तयोः मध्ये निरूप्य निरूपकभावः अस्ति इति एव वदामः किन्तु इदानीम् एतत् तत्र द्रव्यं तत्र निरूपकः अस्ति इति अपि चिन्तयितुं शक्नुमः
गुणः अपि निरूपकः इति वक्तुं शक्नुमः
इदानीं हा किन्तु अग्रे गत्वा निरूप्य निरूपकभावः केवलं तत्र आदेयता अधिकरणता तयोः मध्ये एव इति अग्रे
अस्तु अस्तु इदानीं किं पठनीयं महोदय कुतः
तत्र एतत् कुर्मः तत्र अग्रिमे पुटे भगिनी तत्र गुणः अपि द्रव्यम् इति अस्ति खलु तत्र हा तत्र गुणः द्रव्यम् इति तत् कृतवन्तः इदानीं तत्र कर्म द्रव्ये तिष्ठति इति स्वीकृत्य तत्र द्रव्यस्य विवरणं करोतु, तदनन्तरं कर्मणः विवरणं करोतु.
अस्तु, द्रव्यादि उद्देश्यः.
न न भगिनि, केवलं तत्र चित्रे
शीर्षिका पठितवती.
न न, तदपि मास्तु भगिनि, तत्र अग्रिमे पुटे तत्र कर्म द्रव्ये तिष्ठति इति दर्शितमस्ति खलु,
चित्रे अस्ति खलु,
चित्रे अस्तु अस्ति खलु. प्रथम तु तत्र गुणः द्रव्ये तिष्ठति इति दर्शितं, तदनन्तरं कर्म
द्रव्ये तिष्ठति
इदानीं केवलम् एतत् कर्म द्रव्ये तिष्ठति इति स्वीकृत्य, यथा वयं द्रव्ये गुणः तिष्ठति इति तस्य विवरणं कृतवन्तः, निरूपित इति सर्वम् उक्तवन्तः, तादृशं तत्र कर्म द्रव्ये तिष्ठति इति स्वीकृत्य वक्तुं शक्नोति वा? तत्र गच्छतु भगिनि, सोपानेन गच्छतु. कर्म द्रव्ये तिष्ठति इति इत्यत्र आदेयः कः, आदर तत्र अधिकरणं किम् इति तत् उक्त्वा तदनन्तरं तत्र दीर्घवाक्यं स्थापयतु.
कर्मद्रव्ययोः मध्ये कर्म इति आधेयः अस्ति, द्रव्यमिति अधिकरणमस्ति. अतः द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् कर्म.
आधेयतावत्
अध्येयतावत् कर्म इति वक्तुं शक्नुमः. तथा एव कर्मनिष्ठ अधेयता निरूपित अधिकरणाश्रयः द्रव्यम्
हा इति. समीचीनं भगिनि, हा तत् तथैव अस्ति, समीचीनम् अस्तु. इदानीं तत्र अग्रिममपि तत्र हा इदानीं तत्र अन्ये कुर्वन्तु, किन्तु भवती तत्र पूर्वस्मिन् पुटे तत्र वाक्यमासीत् तत्र तदपि पठितवती एवं सति इति.
एवं सति, द्रव्यं प्रथमतः कुतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वेपि द्रव्यमाश्रित्य तिष्ठन्ति इति यदुक्तं तदपि स्पष्टम्.
नाम
कुतः द्रव्यम् इति पदार्थं प्रथमतया स्थापितम् इत्यस्य प्रश्ने इतरे सर्वेपि द्रव्यमाश्रित्य एव तिष्ठन्ति इति यदुक्तं तत् इदानीं स्पष्टं भवति. इत्युक्ते द्रव्यमाश्रित एव गुणः, द्रव्यमाश्रित एव सामान्यं, विशेषः, समवाय अभावः इति तिष्ठन्ति इति कारणात् द्रव्यम् इति पदार्थं प्रथमतया स्थापितम् इति इदानीम् उक्तम्.
स्पष्टमस्ति तत्र कस्मात् कारणात् द्रव्यं प्रथमतया स्थापितम् इति. समीचीनं भगिनि, भवत्याः नाम किं?
मम नाम जयलक्ष्मी इति अस्ति महोदय.
किं भगिनि?
जयलक्ष्मी इति अस्ति.
जयलक्ष्मी, अस्तु, धन्यवादः भगिनि. तत्र जयराघव इति आसीत् अतः चिन्ता मास्तु अस्तु, धन्यवादः भगिनि. अस्तु, हा अग्रे तत्र रघुवीरेन्द्रस्वामी पठितुम् इच्छति वा? अस्तु, राजीव भगिनी पठितुम् इच्छति वा?
आं महोदय, करोमि.
हा अस्तु भगिनि, इदानीं तत्र एतत् स्वीकरोतु, तत्र सामान्यं द्रव्ये तिष्ठति इति स्वीकृत्य विवरणं करोतु भगिनि. तत्र
सामान्यं द्रव्ये तिष्ठति,
हा
इदानीं सामान्यनिष्ठ अधिकरणता निरूपित आधेयतावत् सामान्यम् इति वक्तुं शक्नुमः.
सामान्यम् इति आरभ्य कृतवती वा अथवा द्रव्यम् आरभ्य कृतवती वा भवती?
अहं
पुनरेकवारं करोतु भगिनि, क्षम्यतां,
एकवारं वदामि जि. द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावत् सामान्यम्.
हा समीचीनं भगिनि,
सामान्यस्य विवरणं वक्तुं शक्नुमः अथवा सामान्यनिष्ठ अधेयता निरूपित अधिकरणतावत् द्रव्यम् इति वक्तुं
शक्नुमः. समीचीनं भगिनि, हा समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तत्र धनश्री भगिनी अग्रे पठितु, अग्रिम उदाहरणं कर्तुम् इच्छति वा? विशेषः द्रव्ये तिष्ठति इति.
आं महोदय,
हा
विशेषः द्रव्ये तिष्ठति द्रव्यं द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् विशेषः
विपरीतदिशि
विपरीतदिशि विशेषणनिष्ठ आधेयता निरूपित
विशेषनिष्ठ
विशेषनिष्ठ आधेयता निरूपित अधिकरणतावत् द्रव्यम्
हा अधिकरणतावत् द्रव्यं समीचीनं भगिनी धन्यवादः वेङ्कटराव महोदय अग्रिमं कर्तुम् इच्छति वा अस्तु
अहं प्रयत्नं करोमि वा
न न महोदय सर्वे कुर्वन्तु इति इच्छा एकनिमिषं महोदय प्रतिमा भगिनी अस्तु वेङ्कटराव महोदय कर्तुं शक्नोति वा समवायः द्रव्ये तिष्ठति इति
समवाय द्रव्ये तिष्ठति द्रव्यनिष्ठा अधिकरणता निरूपित आधेयतावान् समवायः
हा समीचीनम् इदानीं विपरीतदिशि
समवायः निष्ठा आधेयता निरूपित अधिकरणतावत् द्रव्यम्
हा समीचीनं समीचीनं महोदय धन्यवादः अस्तु तर्हि के वि महोदय तत्र अन्तिमं करोतु तत्र अभावः द्रव्ये अस्ति इति
धन्यवादः अभावः तिष्ठ द्रव्यं
अभावः द्रव्ये तिष्ठति
द्रव्ये तिष्ठ अभावः द्रव्ये तिष्ठति अभावः अभावनिष्ठ आदेयता निरूपित अधिकरणता वान् अधिकरणतावान् द्रव्यम्
हा तत्र समीचीनं केवलम् अन्तिमभागे अधिकरणतावत् द्रव्यं नपुंसकलिङ्गपदं द्रव्यम्
अधिकरणतावत् द्रव्यम् द्रव्यं निष्ठ अधिकरणता
महोदय तत्र द्रव्यनिष्ठ
द्रव्यनिष्ठ अधिकरणता निरूपित निरूपित आदेयता वत् आदेयतावान् अभावः
अभावः समीचीनं महोदय हा तदेव तथैव अस्ति धन्यवादः समीचीनं हा
धन्यवादः धन्यवादः
समीचीनम् अस्तु तत्र अग्रे तत्र हा योगेन्द्रमहोदय तत्र अग्रे पठितुम् इच्छति वा प्रश्नः अस्ति वा
आं महोदय मम तु प्रश्नः अस्ति यथा वयं निरूपितः निरूपित इति पदस्य उपयोगं कृत्वा वाक्यं रचितवन्तः इत्येवरीत्या यदा निरूप्य इति पदेन वाक्यं कथं भवति
तत्र निरूपित इति स्वीकृतवन्तः इति वा तत्र पदार्थः कः इति स्थाने तत्र तत्र अधिकरणता इति निरूप्या इति अस्ति चेत् तत्र निरूपकः निरूपका का तत्र निरूपकः अथवा निरूपका आधेयता इति भवति तावदेव तत्र व्यासः निरूपकः कृष्णपथा निरूप्यथा तादृशं तत्र तत्र निरूपकः तत्र महोदय तत्र यदि निरूप्य निरूपकः इति तत्र व्यासः कृष्णकथा इति चित्रं पश्यतु तत्र निरूपकः निरूप्या तत्र व्यासे निरूपकता अस्ति कृष्णकथायां निरूप्यता अस्ति खलु
व्यासे निरूप्यता अस्ति
निरूपकता अस्ति
निरूपकता
निरूप्यता अस्ति इदानीं तत्र तयोः स्थाने इदानीं किम् अस्ति आधारता आधेयता इति एव अस्ति अतः तत्र अधिकरणता अथवा अधिकरणत्वं तत्र निरूपक निरूपकः इति निरूपकम् इति चिन्तयितुं शक्नुमः अपि तत्र आदेयता तत्र निरूप्या इति चिन्तयितुं शक्नुमः किन्तु द्वयोः वर्णनं कर्तुम् इच्छामः तत्र एकतः अन्यं गन्तुम् इच्छामः तस्मिन् समये निरूपिता इति वर्णनं भवति तावदेव.
अस्तु
हा अस्तु इदानीम् अग्रे तत्र तानि नवद्रव्याणि
तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि तथा च सङ्ग्रह तत्र द्रव्याणि पृथिव्याप्तेजो वाव्याकाशकालदिगात्ममनांसि नैवेव इति
नवैव नवैव हा इति इदानीं तत्र वर्णयतु तत्र किं लिखितमस्ति तत्र
तानि नौ द्रव्याणि सङ्ग्रहेण निर्दिष्टानि सन्ति अत्र उपरि
हा न न तत्र प्रथमे पुटे द्रव्याणां विवरणं तत्र दत्तमासीत् खलु हा तत्र प्रथमपुटं पश्यतु महोदय तत्र द्रव्यमिति अधोभागे आसीत् खलु चित्रे तत्र प्रथमपुटे हा तत्र किं किम् अस्ति
पृथिवी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः
हा इति नवद्रव्याणि
दत्तानि सन्ति तानि द्रव्याणि एव अत्र एकसूत्रेण दत्तानि सन्ति
तत्र सङ्ग्रहकारणे नाम अन्नं भट्टैः तर्कसङ्ग्रहकारेण तत्र मूलग्रन्थस्य लेखकः तत्र अन्नं भट्टः तैः निर्दिष्टानि सन्ति तत्र सङ्ग्रहकारेण निर्दिष्टानि पृथ्व्यादीनि पृथ्वी इत्यादीनि द्रव्याणि तत्र द्रव्याणि पृथिवी तदनन्तरम्
आपः तेजः वायु आकाशकाल दिक् आत्मा मनः
मनः किन्तु तत्र समूहः अस्ति इति कृत्वा द्रव्याणि कानि इत्युक्ते सर्वम् उक्त्वा तदनन्तरम् अन्तिमपदस्य सदस्यस्य बहुवचनरूपं मनसि मनः इति सकारान्तपदं खलु मनस् इति अतः मनांसि इति नवद्रव्याणि सन्ति नव एव द्रव्याणि सन्ति तस्य उपरि अन्यत् किमपि द्रव्यं नास्ति यदपि द्रव्यं यस्मिन् गुणः अस्ति सः द्रव्यं तद्द्रव्यम् इति उक्तवन्तः एतानि एव नवद्रव्याणि सन्ति विहाय एतानि नवद्रव्याणि विहाय अन्यत् किमपि द्रव्यं नास्ति इति अपि अस्ति अत्र अस्तु समीचीनं महोदय
प्रथमं तु पदार्थः अस्ति वा
पदार्थः द्रव्यमिति एकः पदार्थः अस्ति तत्र सप्तपदार्थाः सन्ति हा पदार्थेषु प्रथमं द्रव्यमस्ति
पदार्थेषु प्रथमं द्रव्यमस्ति अस्तु
हा सप्तपदार्थाः सन्ति तेषु प्रथमः द्रव्यं द्रव्ये नवविधानि सन्ति तानि कानि इत्युक्ते इदानीमेव यत् भवान् पठितवान्
अपि च पदार्थाः द्रव्यगुणकर्म सामान्यं विशेष समवाय अभावः
इति सत्यं हा समीचीनं महोदय तदेव अस्ति धन्यवादः अस्तु अस्तु तत्र अग्रे तत्र पुष्पा भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय एकनिमिषं महोदय शब्दं नास्ति
न न श्रूयते इदानीं तत्र ततः गुणान् विभजते इति
शब्दं नास्ति न पति उग्रे अस्ति तथैव अस्तु ततः गुणान् विभजते रूपरस गन्धस्पर्श सङ्ख्यापरिमाण पृथक्त्व संयोगविभाग परत्व अपरत् गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःख दुःखे च
दुःख
दुःख
दुःख दुःखे दुःख दुःख न दुःख इच्छा
दुःख ये
इच्छा
द्वेष प्रयत्न धर्म अधर्म संस्काराः
तत्र धर्म
विशति गुणाः सन्ति
धर्म धर्म अधर्म
धर्म संस्काराः
तत्र अन्तिमसदस्यस्य बहुवचनम् अतः किन्तु अन्तिमसदस्य
संस्काराः एतत् सर्वे
गुणाः
कृत्वा अत्र संस्काराः इति वदति
हा यतोहि तत्र अन्तिम
संस्कारः अपि एकगुणः
हा इति समीचीनं हा
वदामि
पुनः एकवारं भगिनी पुनः एकवारं तत्र गुणाः के इति पुनः
वदतु एते चतुर्विंशतिगुणाः इति सन्ति एतत्तु रूप रस गन्ध स्पर्श सङ्ख्या परिमाणं पृथक्त्व संयोग पृथक्त्व संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्कार एते चतुर्विंशति गुणाः सन्ति
हा समीचीनं भगिनि अतः एते गुणाः एव तत्र द्रव्ये तिष्ठन्ति तत्र सर्वे गुणाः सर्वेषु द्रव्येषु तिष्ठन्ति इति न किन्तु तत्र एते गुणाः कुत्र तिष्ठन्ति द्रव्ये तिष्ठन्ति हा समीचीनं भगिनि तत्र अतः तत्र गुणानां चतुर्विंशति तत्र विविधानि तत्र चतुर्विंशतिगुणाः सन्ति इति अस्ति समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र दीप्ति भगिनी अग्रे पठितुम् इच्छति वा
क्षम्यताम् अहं पठामि परन्तु एक्स्प्लेनेशन्
अस्तु विवरणं न दातुं शक्नोति समीचीनं भगिनी अस्तु पठतु तर्हि
धन्यवादः केचन दार्शनिकाः कर्म इति पदार्थं न अङ्गीकुर्वन्ति अतः कर्मणि अस्ति विवादः न तथा गुणेषु गुणानां इयत्ताविषये विवादसत्त्वे अपि गुणः अत्तपदार्थः वर्तते न वा इति नास्ति विवादः अतः गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देश उत्तरं निर्दिष्टाः
हा इति समीचीनं भगिनि धन्यवादः अस्तु तत्र सर्वाणि भगिनी तत्र किञ्चित् विवरणं दातुम् इच्छति वा
नमस्कारः महोदय
नमस्कारः भगिनि
आं महोदय अहं वदामि केचन दार्शनिकाः कर्म इति पदार्थः अस्ति इति अङ्गीकारं न कुर्वन्ति
हा समीचीनं तत्र कर्म इति पदार्थः न वा इति तत्र ते वदन्ति न न अतः तत्र दार्शनिकः नाम नैयायिकाः एव अतः तत्र मतद्वयं वर्तते एकस्मिन् मते कर्म इति पदार्थः इति वदन्ति अन्यस्मिन् कर्म पदार्थः इति न अङ्गीकुर्वन्ति समीचीनं
अतः कर्मणि अस्ति विवादः अतः कर्म अस्ति वा न वा इति विवादः वर्तते
हा तत्र अस्ति तत्र कर्मणि इति सप्तमी अस्ति तत् अस्ति विषयसप्तमी नाम कर्म इति विषये विवादः अस्ति. कर्मणि कर्म इति विषये अतः कर्मणि विषये विवादः अस्ति. हा किन्तु
न तथा गुणेषु.
हा नाम गुण इति विषये
अङ्गीकारः अस्ति.
हा गुण इति विषये अङ्गीकारः अस्ति, तत्र विवादः नास्ति. हा अग्रे
गुणानां इयत्ता विषये विवादसत्त्वेपि गुणः अतिरिक्तपदार्थः वर्तते न वा इति नास्ति वादः. महोदय प्रथमभागः
अस्तु, तत्र प्रथमभागः अग्रे पश्यामः, किन्तु द्वितीयभागस्य तत्र पदार्थः तत्र गुणः अतिरिक्तपदार्थः
गुणः अतिरिक्तपदार्थः वर्तते न वा इति विवादः नास्ति. अतिरिक्तः पदार्थः एकः अस्ति इति कोऽपि न वदन्ति.
हा नाम इदानीं तत्र वयं तत्र नैयायिकाः किं कुर्वन्ति, तत्र विभागः कृतवन्तः खलु, तत्र सर्वेषां पदार्थानां विभागः कृतवन्तः. इदानीं तत्र कर्म इति अतिरिक्तपदार्थः नाम सपरेट् इति भवति वा, अथवा कर्म इति गुणे अन्तर्भूतः अस्ति वा, अथवा कर्म सामान्ये अन्तर्भूतः अस्ति वा, अथवा कर्म इति विशेष्ये एव अस्ति इति, तत्र तत्सर्वं चिन्तनीयं खलु. अतः तत्र कर्म इति अतिरिक्तपदार्थः वा अथवा अन्येषु वर्तते वा इति प्रश्नः भवति, चर्चा अस्ति. किन्तु गुणः इति तस्मिन् विषये कापि चर्चा नास्ति. गुणः इति पदार्थः भिन्नः अस्ति. गुणः इति द्रव्यं नास्ति, गुणः इति कर्म नास्ति, गुणः इति सामान्यं नास्ति. अतः तत्र गुणः इति एकः पदार्थः, सर्वैः स्वीकृतः पदार्थः इति. किन्तु तादृशकर्म इति विषये तादृशस्थिति तादृशी स्थितिः नास्ति. कर्म इति विषये विवादः अस्ति. हा इदानीं गुणानां यत्ता विषये विवादः, तत्र वाक्यं पठतु भगिनि. गुणानां यत्ता विषये
विवादसत्त्वेपि,
हा तत्र विवादसत्त्वे नाम विवादः अस्ति. कस्मिन् विषये? गुणः अस्ति न वा इति विषये विवादः नास्ति. किन्तु गुणानां इयत्ता नाम कति गुणाः सन्ति इति विषये, तत्र चतुर्विंशतिगुणाः एव सन्ति वा अथवा तत्र विंशतिगुणाः सन्ति वा इति तस्मिन् विषये विवादः अस्ति, मतभेदः अस्ति. किन्तु गुणः इति पदार्थः अस्ति न वा इति तस्मिन् विषये विवादः नास्ति. अतः तत्र कति गुणाः सन्ति तस्मिन् विषये विवादः अस्ति भवतु, किन्तु गुणः इति पदार्थः अस्ति इति सर्वे अङ्गीकुर्वन्ति. हा इदानीम् अन्तिमभागः. अतः
गुणकर्मणोः मध्ये गुणा एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः. अतः किं करणीयं? गुणनिर्देशनार्थं द्रव्यनिर्देशनार्थं वयं गुणम् एव स्वीकुर्मः.
हा हा तत् तदस्ति. किन्तु अत्र प्रश्नः कः नाम, तत्र वयम् उक्तवन्तः तत्र पदार्थाः के इति, तत्र पदार्थाः तत्र क्रमः अस्ति खलु, तत्र उपरि तत्र प्रथमं द्रव्यं, तदनन्तरं गुणः, तदनन्तरं कर्म, तदनन्तरमेव सामान्यमस्ति खलु. हा इदानीं वयम् उक्तवन्तः किमर्थं द्रव्यं प्रथमतया वयं तस्य विषये तद् उक्तवन्तः, नाम क्रमः यः अस्ति तत्र द्रव्यं प्रथमः, तदनन्तरं गुणः इति. तत्र एतावत् वयं किं कृतवन्तः, किमर्थं द्रव्यम् आदौ अस्ति इति तस्य समाधानं दृष्टवन्तः, यतोहि सर्वे पदार्थाः द्रव्ये तिष्ठन्ति इति खलु. हा इदानीं प्रश्नः उदेति किमर्थं गुणः द्वितीयः अस्ति इति, द्रव्यस्य अनन्तरं किमर्थं कर्म नास्ति, किमर्थं द्रव्यः गुणः एव मध्ये द्वितीयः अस्ति इति. तस्य प्रश्नस्य उत्तरमस्ति, यतोहि कर्म इति विषये विवादः अस्ति, किन्तु गुण इति विषये विवादः नास्ति. अतः गुणः एव तत्र अग्रिमः भवति. अतः द्रव्यं तदनन्तरं गुणः इति अत्र लिखितमस्ति. अतः तत्र गुणकर्मणोः मध्ये गुणाः गुणाः एव द्रव्यनिर्देशोत्तरं निर्दिष्टाः भवन्ति. अतः तत्र गुणाः के इति एव तेषां वर्णनमेव कृतं द्रव्याणां वर्णनानन्तरम् इति. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, तत्र श्रीकृष्णमहोदय अग्रे पठितुम् इच्छति वा?
आम् महोदय, प्रयत्नं करोमि. ते च रूपरसगन्धस्पर्श इत्यादि सङ्ग्रहपङ्क्त्या निरूपिताः.
तत्र गुणः, तत्र पङ्क्त्या नाम एकम् एकम् अनन्तरं निरूपिताः भवन्ति, गुणाः निरूपिताः भवन्ति. हा, इदानीम् अग्रे.
ततः कर्म क्रिया निर्दिष्टा उत्क्षेपणादिग्रन्थेन. कर्म क्रिया
तत्र कर्म नाम क्रिया, तत्र कीदृशक्रिया लोके भवति इति तत्र तस्य विभजनमपि कृतं. तत्र अग्रे तत्र वाक्यमस्ति, तत् एकवारं पठतु महोदय.
उत्क्षेपण अपेक्षण आकुञ्चन प्रसारण गमनानि पञ्चकर्माणि.
हा, नाम तत्र अग्रे पश्यामः, तत्र केवलं पञ्च इति एव नास्ति, तत्र तत्र उदाहरणत्वेन एतत् दत्तमस्ति. तत्र उत्क्षेपणम्, उत्क्षेपणं नाम उपरि उपरि क्षिपणं, तत्र किमपि उपरि हा क्षिपामः, तत्र उत्क्षेपणम्. अपक्षेपणं नाम अधो
अधोभागे
हा क्षिपामः. तदनम् आकुञ्चनं प्रसारणं
गमनं.
तत्र यद् उत्क्षेपणं नास्ति, आपेक्षणं नास्ति, आकुञ्चनं नास्ति, प्रसारणं नास्ति, तत्सर्वं गमनम् इति अन्तर् इति कर्मे कर्मणि अन्तर्भूतः भवति, तावदेव. अतः तत्र पञ्चकर्माणि एव सन्ति इति वयं चिन्तयामः अत्र. अस्तु, समीचीनं महोदय, अग्रे अपि पठतु. तत्र
पूर्वोक्तानां गुणानां कर्माणां च विस्तृतं विवरणम् अग्रिमे लक्षणप्रकरणे भविष्यति. सम्प्रति नाम्ना सङ्कीर्तनम् एव भवति.
हा, नाम एतावत् तत्र द्रव्यं किम् इति किञ्चित् उक्तवन्तः, अपि गुणाः के इति विवरणं दत्तवन्तः, अपि कर्माणि कानि इति अपि तत्र उक्तवन्तः. किन्तु तत्र विस्तृतं विवरणं, तत्र ते के इति तस्य विवरणम् अग्रे तत्र लक्षणप्रकरणे. इदानीं तु उद्देशः भागः, उद्देशभागे केवलं नामसङ्कीर्तनं, तत्र नामकरणमेव भवति. अतः एतावत् केवलं नामानि उक्तवन्तः वयं, तावदेव. किन्तु विवरणम् अग्रे भविष्यति. तत्र रूपनाम किं, रसनाम किं, गन्धनाम किं, स्पर्शनाम किम्, अपि रूप रस तयोः मध्ये कः भेदः, गन्धरसं तयोः मध्ये कः भेदः, गन्धः कुत्र वर्तते, स्पर्शः कुत्र वर्तते, सङ्ख्या कुत्र वर्तते, एतत् सर्वं लक्षणभागे, लक्षणप्रकरणे एतत् सर्वं वयं द्रक्ष्यामः. सम्प्रति नाम्ना सङ्कीर्तनमेव भवति. अस्तु, अग्रे तत्र
तत्र सर्वे गुणादय द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य अयम् अर्थः विवक्षितः.
हा, नाम इदानीम् अग्रे चित्रं भवति. तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इति नाम तत्र सर्वे पदार्थाः गुणादयः, नाम गुणाः कर्म इति सर्वे पदार्थाः द्रव्ये वर्तन्ते इति उक्तं पूर्वं तस्य अर्थः एषः इति अग्रिमे पुटे चित्रम् अस्ति. तत्र सर्वे पश्यन्तु. धन्यवादः महोदय, श्रीकृष्णमहोदय, धन्यवादः. अस्तु, तत्र वेङ्कटराव् महोदय पठति वा अग्रे?
आं महोदय.
हा, तत्र चित्रम् अस्ति महोदय, तत्र द्रव्ये तत्र किम् अस्ति, तत्र सप्तपदार्थाः अपि तत्र द्रव्ये द्रव्ये द्रव्यम् अस्ति, गुणः अपि द्रव्ये अस्ति, कर्म अपि द्रव्ये अस्ति, सामान्यमपि द्रव्ये अस्ति, विशेषः अपि द्रव्ये अस्ति, समवायः अपि द्रव्ये अस्ति, अभावः अपि द्रव्ये अस्ति. अतः सर्वे पदार्थाः द्रव्ये वर्तन्ते, भवन्ति. इदानीं तत्र गुणः, गुणे किं किं भवितुम् अर्हति?
गुणे सामान्यं, समवायः, अभावः.
हा, तत्र गुणे द्रव्यं न भवितुम् अर्हति. गुणे द्रव्यं न भवति, गुणे गुणः, अन्यः गुणः एकस्मिन् गुणे न भवितुम् अर्हति. हा, अतः तत्र तथा च गुणे,
तथा च गुणे द्रव्यं, गुणः, कर्म, विशेषः च नास्ति इत्यर्थः.
हा, नाम सामान्यं गुणे भवति, समवायः गुणे भवितुम् अर्हति, अभावः गुणे भवितुम् अर्हति, किन्तु गुणे द्रव्यं वा अथवा अन्यः गुणः वा अथवा कर्म वा विशेषः वा न भवितुम् अर्हति. हा, इति. हा, अतः तत्र चित्रे एतत् सर्वं प्रदर्शितमस्ति. तत्र तत्र वाक्यानि सन्ति, तत् एकवारं पठतु महोदय. तत्र एवं कर्मणि इति तत्र पुनः
कर्मे सामान्यं,
हा कर्मे नाम महोदय तत्र कर्मन् इति नकारान्तपदम् अतः कर्मणि,
कर्मणि, कर्मणि सामान्यं, समवायः, अभावः.
हा, एवम् एव वर्तन्ते. हा,
एवं वर्तन्ते. एवं कर्मणि अपि द्रव्यं, गुणः, कर्म, विशेषः च नास्ति इत्यर्थः.
हा, एतस्य चित्रस्य अर्थः अस्ति विशेषः, द्रव्यं, गुणः, कर्म इति कर्मणि न भवन्ति इति. समीचीनम्, अस्तु. अग्रे
सामान्ये समवायः, अभावः वर्तते. तथा च सामान्ये द्रव्यं, गुणः, कर्म, सामान्यं, विशेषः च नास्ति इत्यर्थः.
इति अर्थः. समीचीनं, धन्यवादः महोदय. अस्तु, अग्रे तत्र अञ्जलि भगिनी पठितवती. अस्तु, तत्र प्रतिमा भगिनी पठितुम् इच्छति वा? अस्तु, भवानी भगिनी, भवानी भगिनी पठितवती वा? अस्तु, अस्तु, तत्र अन्य कोऽपि पठितुम् इच्छति वा? एतावत् कः न पठितवान् अथवा न पठितवती? सरला भगिनी.
अहं पठामि महोदय.
अस्तु भगिनि, सरला भगिनी पठतु.
विशेषः अत्र समवायः, अभावः वर्तते. किन्तु किन्तु विशेषे सामान्यं
द्रव्यं,
सामान्यं द्रव्यं, गुणः, कर्म, विशेषः न वर्तते.
न वर्तन्ते. समीचीनं, समीचीनं.
वर्तन्ते.
इदानीं
समवाये अभावः वर्तते. परन्तु समवाये
अभावं विहाय,
अभावः अभावं विहाय षट् पदार्थानि न वर्तन्ते.
अन्यपदार्थाः
न वर्तन्ते.
न वर्तन्ते. समीचीनम्. हा, इदानीम् अग्रे अभावे
अभावः, अभावे अभावः एव वर्तते. अभावः विहाय षट् पदार्थाः, अभावं विहाय षट् पदार्थाः न वर्तन्ते.
न वर्तन्ते. समीचीनं भगिनि. हा, अस्तु, इदानीम् अग्रिमपुटे तत्र तथा च
संशय.
वदतु महोदय.
यदि अभाव अभावे वर्तते, किमर्थं समवाये समवायः न वर्तते?
हा हा, तत्र कीदृशम् इति तत्र भेदः अस्ति महोदय. अतः तत्र सर्वेषां पदार्थानाम् एकविधम् इति एव नास्ति. तत्र विशेषं, तत्र वैशिष्ट्यमस्ति. तत्र अभावस्य वैशिष्ट्यं भिन्नम् अस्ति, समवायस्य वैशिष्ट्यं भिन्नम् अस्ति. किन्तु समीचीनप्रश्नः महोदय. अग्रे तत्र यथा तत्र वर्णनं भवति, अभावः नाम किं, समवायः नाम किं, तदा वयं पश्यामः एषा स्थितिः अस्ति इति.
ओके ओके थैंक
यू. समीचीनं प्रश्नं महोदय. हा हा अस्तु. तत्र सरलभगिनी अग्रिमे पुटे तत्र
तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद्वाक्य वाक्यार्थः किन्तु द्रव्ये अवश्यं तिष्ठन्ति गुणादौ यथायतं तिष्ठन्ति इति अर्थः.
हा अतः तत्र अर्थः कः यत् वाक्यं भवती पठितवती तस्य वाक्यस्य अर्थः कः?
गुणादयः गुण आदयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद्वाक्यार्थः अर्थमिति गुण आदि सर्वे द्रव्यं द्रव्ये एव तिष्ठन्ति इति न तद्वाक्यार्थः. सो सर्वे द्रव्याः इति न भवन्ति.
हा तत्र हा अस्तु किञ्चित् क्लिष्टं
गुण आदि गुणः कर्म सामान्यं विशेषः समवायः अभावः सर्वे द्रव्ये एव तिष्ठन्ति इति न अर्थः.
हा तत्र किञ्चित् क्लिष्टमस्ति इति कुर्मः एतत् कुर्मः प्रथमपुटे तत्र गुणः द्रव्यम् इति दत्तमस्ति खलु प्रथमे पुटे. तत्र गुणः पृथ्वी पृथ्व्यां तत्र गन्धः अस्ति तत्र सर्वे पश्यन्ति खलु तत्र प्रथमपुटे पृथ्वी इति द्रव्यम्
अस्ति.
हा तस्यां गन्धः अस्ति तत्र गन्धः जले न वर्तते शैत्यं पृथिव्यां न भवति औष्ण्यं तत्र जले न भवति इति अग्रे पश्यामः. अतः सर्वे तत्र सर्वे गुणाः द्रव्ये तिष्ठन्ति इति वाक्यस्य अर्थः एषः नास्ति. तत्र यद् किमपि द्रव्यं स्वीकरोतु तस्मिन् द्रव्ये सर्वे गुणाः भवन्ति इति न किन्तु गुणः अस्ति चेत् कस्मिन् एतस्मिन् द्रव्ये भवितुम् अर्हति किन्तु अन्यस्मिन् द्रव्ये तद् भवति अथवा न तदपि किन्तु यत्र भवति यदा तत्र वदामः अस्तु एषः गुणः अस्ति इति तत्र कुत्र अस्ति एषः गुणः द्रव्ये एव भवितव्यं किन्तु सर्वेषु द्रव्येषु सर्वे गुणाः भवन्ति इति नास्ति. अतः तत्र गन्धः केवलं पृथिव्यामेव भवति अन्येषु द्रव्येषु न भवति इति अग्रे पश्यामः. अस्तु तर्हि तत्र एतावत् समीचीनं तत्र वयम् अद्य बहु किमपि अतीतवन्तः. धन्यवादः भगिनी. वयं
बहु
अतीतवन्तः समीचीनमस्ति. तत्र निरूपकभावः दृष्टवन्तः अपि तत्र विवरणं निष्ठ आश्रयः इति तत् कथं भवति इति दृष्टवन्तः. समीचीनमस्ति. अग्रिमवर्गे अग्रे सरामः तर्हि. सर्वेषां
धन्यवादः.
नमस्कारः. अग्रिमवर्गे मिलामः. नमस्कारः.
धन्यवादः. धन्यवादः.